एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा प्रधानमन्त्री केपी शर्मा ओली निगदति सूचनायाः अधिकारस्य उपयोगस्य क्रमी अराजकतायै प्रश्रयो न देयः बालुवाचारवर्तिनी प्रधानमन्त्री निवासे ह्य आयोजिते कार्यक्रमे प्रधानमन्त्री ओली असम्बद्धै जनै नैकविधाम सूचनाम याचित्वा सर्वकारस्य कार्य प्रभाव सर्जनस्य प्रवृत्ते प्रोत्साहनम् न प्रदेयमिति प्रावोचत् प्रधानमन्त्री ओली संविधाने उल्लिखितानां मौलिकाधिकाराणां मध्ये सूचनायाः अधिकारस्य क्रियान्वयनाय उपयोगाय च राष्ट्रिय सूचना आयोगस्य भूमिका प्रभावपूर्णा विधेया इत्यवोचत् तदवसरे प्रधानमन्त्रिणः ओलिनः समक्षं राष्ट्रिय सूचना आयोगस्य नवनियुक्तः प्रमुख सूचना आयुक्तः डॉ सुरेश प्रसाद आचार्यः पदगोपनीयतयोः शपथम् अगृह्णात् प्रधानमन्त्रिणः उपस्थितौ प्रमुखायुक्तः आचार्यः नवनियुक्तम् आयुक्तद्वयं गगनविष्टं दुर्गाभण्डारिणं च पदगोपनीयतयोः शपथम् अग्राहयत् प्रधानमन्त्री केपी शर्मा ओली छात्रेभ्य गुणस्तरीय शिक्षा प्रदातव्य इत्यत्र बलं ददाति तेरथुम जनपदस्य आशाई स्थाने स्थितस्य प्रणामी माध्यमिक विद्यालयस्य नवनिर्मितस्य भवनस्य ह्य उद्घाटनं विदधानः प्रधानमन्त्री ओली शिक्षकेषु ज्ञान सम्प्रेषणस्य कलायाः विकासः करणीया इत्यत्र बलं प्रादात् प्रधानमन्त्री ओली माध्यमिक शिक्षा परीक्षायां विद्यालयस्य गतवर्षस्य असन्तोषजनकं परिणामं प्रति खिन्नताम् अभिव्यज्य विद्यार्थिनः शिक्षकांश गभीरतया प्रयासं कर्तुम् अनुरुणत् तदवसरे प्रधानमन्त्री ओली बाल्यकाले कृतम् अध्ययनं क्रीडाञ्च अस्मरत् प्रधानमन्त्री ओली विद्यालयस्य छात्रैः शिक्षकैः स्थानीयैः सहापि अन्तर्क्रियाम् अकरोत् उपप्रधान अर्थमन्त्री विष्णु प्रसाद पौडेलः कथयति अर्थतन्त्रस्य सुधाराय प्रयासः विधीयमानो वर्तते प्रतिनिधिसभायाः अन्तर्गतायाम् अर्थसमितौ ह्य विहिते आर्थिक विमर्शने समस्याग्रस्तस्य प्रभावे स्थितस्य च अर्थतन्त्रस्य सुधाराय प्रयासः विधीयमानो वर्तते समग्रार्थिक सूचकांकेषु कतिपय सूचकांकाः अनुकूलाः सन्ति शेयर आपणादि गतिशीलता आगता स्थिति च अवोचत् अर्थमन्त्री पौडेलः राजस्वस्य क्षेरणं रोद्धुं सर्वकारेण प्रयासः विधीयमान सन्नपि सर्वे प्रयासः सफलः सम्भूतः न सन्तीति अगदत् राजस्वस्य लक्ष्यप्राप्त्या एव आयव्ययकस्य सन्तुलनं संस्थापयितुं शक्यते इति चर्चयन् मन्त्री पौडेलः लक्ष्यं पूरयितुम् आत्मना सक्रियेण प्रवर्तितमस्तीति अवोचत् उपवेश्य अर्थमन्त्रालयस्य सचिवः डॉ रामप्रसाद घिमिरे अर्थतन्त्रस्य बाह्य सूचकांकाः अनुकूलाः सन्तोऽपि आन्तरम् अर्थतन्त्रं गतिशीलं विधातुं समाहोयोस्तीति अभासत नेपाल सर्वकारस्य ऐषयिक विकास वित्त कोषस्य च मध्ये यान्त्रिक सेचन नवप्रवर्तन परियोजनायाः जलवायुत्थानशिलायाः जीविकोपार्जनशिलायाश्च परियोजनायाः क्रियान्वयनाय एकविंशतेः अब्जानां त्रयोविंशतेः कोटिनांश रूप्यकाणां सौविध्यपूर्णस्य ऋणसम्बद्धायाम् अनुदानसम्बद्धायाञ्च संविधायां हस्ताक्षराणि सम्पन्नानि सन्ति अर्थमन्त्रालये ह्यः सम्भूतायाः संविधायाः अनुसारेण परियोजनायाः कृते ऐषयिक वित्तकोषेण चतुर्दशाब्जानि अष्टाशीति कोटयश्च रूप्यकाणि ऋणत्वेन अब्जद्वय रूप्यकाणि अनुदानत्वेन च प्रदास्यते एवमेव जलवायुत्थानशिलायाः जीविकोपार्जनशिलायाश्च परियोजनायाः कृते एकाब्जं पञ्चत्रिंशत् कोटयश्च रूप्यकाणि ऋणत्वेन द्वे अब्जे सप्तनवति कोटयश्च रूप्यकाणि अनुदानत्वेन प्रदातुं संविदा सम्भूता अस्ति संविदापत्रे अर्थसचिवः डॉ रामप्रसाद घिमिरे ऐषयिक वित्तकोषस्य देशीय निर्देशकः आर्नो कोशवा च हस्ताक्षराणि विहितवन्तौ स्वास्थ्य जनसंख्या मन्त्री प्रदीप पौडेलः निगदति सर्वान् आवश्यक विषयान् समाविश्य जनसंख्या नीतेः निर्माणस्य आवश्यकता वर्तते ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री पौडेलः जनसंख्या नीत्या एव देश निर्माणस्य आधारः निर्मास्यते इत्यतः जनसंख्या नितौ सर्वेषां विषयाणां समावेशनस्य आवश्यकता भवति इति अगदत्। जनसंख्या नीति निर्माणस्य विषयः सर्वकारस्य प्राथमिकतायां नास्ति इति चर्चयन् मन्त्री पौडेलः जनसंख्यायाः विषये राष्ट्रियां नीतिं निर्मातुं विश्वविद्यालयानां जनसंख्या विभागैः विशेषः प्रयत्नः करणीयः इति प्रावोचत्। राष्ट्रिय स्वतंत्र दलस्य सभापतिः रवि लामिछाने पर्सा जनपदात् पूर्वेद्युः कास्की जनपदं प्रापितोऽस्ति। सानुपाइला सहकारी संस्थायाः वित्तापचलनस्य सन्दर्भे विवरण संकथनाय लामिछाने सोमवासरे पर्सा जनपदं प्रापितः आसीत्। मंगलवासरे संकथन विवरणस्य कार्यं समाप्य सभापतिः लामिछाने ह्यः प्रातः सीमरा विमानस्थलात् काष्ठमण्डपं काष्ठमण्डपात् पोखरा स्थानञ्च प्रापितो वर्तते। लामिछाने सहितः प्रतिवादिनः पुनः समयावधे वर्धनाय अद्य न्यायालये उपस्थाप्यन्ते। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी निगदति वृत्ति उपार्जनस्य प्रमुख स्रोत नैजक्षेत्रं वर्तते। राष्ट्रिय व्यावसायिक प्रशिक्षण प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे मन्त्री भण्डारी मन्त्रालयस्य अन्तर्गतम् अन्तर्वृत्ति उपार्जन महाशाखायाः संस्थापनं विधीयमानमस्ति इति असूचयत्। मन्त्री भण्डारी देशाभ्यन्तरे वृत्ति उपार्जनस्य सम्भावनां वर्धयितुं महाशाखायाः स्थापनया सहयोगो मेलिष्यति इति विश्वसितवान्। सार्वजनिक शिक्षायाः गुणस्तरं वर्धयितुं सामुदायिक विद्यालयानां शिक्षकाः दलगत राजनीतिक गतिविधितः दूरं संस्थापनीयः इति शिक्षाविद्भिः परामृष्टं वर्तते। प्रतिनिधिसभायाः अन्तर्गतायां शिक्षा स्वास्थ्य सूचना प्रविधि समितौ विद्यालय शिक्षा विधेयकम् आधृत्य परामर्शनं ग्रहीतुं विज्ञै सह ह्य उपविष्टे उपवेशे शिक्षाविदः दलगत राजनीतिकाबद्धतातः सार्वजनिक शिक्षा गुणस्तरहीना सम्भूतेति चर्चयन्तः वेतन निवृत्ति भरण प्रभृतीनि सौविध्यानि राज्येन प्रदीयमानानि सन्त्यपि सामुदायिक विद्यालयानां शिक्षकैः परिणाममुखिनः कार्यस्य असम्पादने कारणं दलगतबद्धतास्ति इति धारणां व्यक्तवन्तः। नेपाल पत्रकार महासंघस्य रेडियो नेपाल प्रतिष्ठान शाखायाः कार्यसमितिः निर्विरोधं निर्वाचिता वर्तते। प्रतिष्ठान शाखायाः कृते ह्य विहिते मनोनयने सर्वेषां पदानां कृते प्रतिपदम् एकैकेन एव जनेन प्रत्याशितायाः प्रस्तुते पश्चात् कार्यसमितिः निर्विरोधं निर्वाचिता अस्ति इति समाचारः।